इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। पञ्चवर्षस्य अनन्तरम् अद्य सिक्किमतः कैलाश मानसरोवर यात्रा आरभ्यते। अद्य सिक्किमतः आरभ्य कैलाश मानसरोवर यात्रायाः सुचारुरूपेण सञ्चालनाय सर्वाः सज्जाः सम्पन्नाः। राज्यपालः ओम प्रकाश माथुरः अद्य प्रातः नथुलादर्रातः यात्रायाः ध्वजं प्रदर्शयिष्यति। सिक्किम प्रशासनं केन्द्रसर्वकारस्य विभिन्न विभागैः सह सहकार्यं कृत्वा तीर्थयात्रिणां सुचारु यात्रायाः सुनिश्चयं कृत्वा सर्वप्रयत्नान् कुर्वत् अस्ति। प्रथम समूहे 36 जनाः सन्ति। पर्यटन नागर विमानन अपर मुख्य सचिवः सीएस रावः प्रोक्तवान् यत् राज्यपालः श्रद्धालुभिः सह वार्तां विधास्यति।
After a break of 6 yatris, again the team, first batch of yatris to Kailash Manasarovar, they are going to start our Indian border from Nathula. For their yatris, immigration, all the facilities, all the arrangements have been made. Definitely that will be a very successful program.
प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रभृतिः बिहार ओडिशा आन्ध्रप्रदेशानाम् इत्येषाम् द्विदिवसीय यात्रायां भविष्यति। असौ बिहार ओडिशयोः कासाञ्चित् विकास परियोजनानां शिलान्यासं करिष्यति। अस्माकं वार्ताहरेण सूचितं यत् मोदी श्वः आन्ध्रप्रदेशस्य विशाखापत्तनम् इत्यत्र 11वें अन्ताराष्ट्रिय योग दिवस समारोहस्य नेतृत्वं करिष्यति। आकाशवाणी इत्यस्यै प्रदत्ते विशेष साक्षात्कारे आयुष मन्त्री प्रताप राव जाधवः उक्तवान् यत् योगः जीवनशैली वर्तते, न तु एकदिवसस्य कार्यक्रमः। अतः सः जनान् अध्यर्थितवान् यत् ते योगं स्वजीवने स्वीकुर्वन्तु, गृहेऽपि जनेभ्यः अस्य कृते प्रेरणां प्रयच्छेयुः।
योग एक दिन का इवेंट नहीं, हमारे प्रधानमंत्री ने भी यह संदेश दिया है कि योग को अपनी जीवन शैली बनाओ, अपने जीवन में योग को स्थान दो और योग के माध्यम से तंदुरुस्त रहो। आप तो खुद योगा हर रोज करो, योगा के लिए समय दो, लेकिन आपके परिवार में सभी को योगा करने के लिए प्रवृत्त करे।
आइए इस 21 जून हम सब हिस्सा बने अंतर्राष्ट्रीय योग दिवस का और करें स्ट्रेच एंड चिल योग के साथ।
केन्द्रीय गृहमन्त्री अमित शाहः अद्य बेंगलुरुनगरे आदि चुञ्चनगिरि विश्वविद्यालय परिसरस्य उद्घाटनं करिष्यति। सोशल मीडिया पोस्ट मध्ये शाहः अवदत् यत् अद्य सः आदि चुञ्चनगिरि विश्वविद्यालय परिसरस्य उद्घाटन समारोहे भागं गृहीष्यति। ईरान इजराइल देशयोः संघर्षः वर्धमानः अस्ति। ईरान क्षेपणास्त्र आक्रमणेन मध्य दक्षिण इजराइल देशे महती क्षतिः अभवत्। इजराइलेन ईरानस्य परमाणु संयन्त्रे आक्रमणं कृतम्। इजराइल ईरान देशयोः मध्ये सप्तम दिने अपि द्वन्द्वः प्रचलति स्म। ईरानस्य क्षेपणास्त्रैः मध्य दक्षिण इजराइलस्य अनेक स्थानेषु महती क्षतिः कृता। इजराइलस्य सुरक्षाबलैः ईरानस्य अराक बृहत् जल परमाणु अभियान्त्रिकस्य उपरि आक्रमणं कृतम्। भारत इंग्लैंड दलयोः टेस्ट क्रिकेट स्पर्धा श्रृंखला अद्य प्रभृतिः प्रारभ्यते। स्पर्धा हेडिंग्ली क्रिकेट प्रांगणात् प्रारभ्यते। अपराह्णे 3:30 भविष्यति रोहित शर्मणः अनुपस्थित्यां सर्वेषां चक्षुः शुभमन गिलोपरि स्थास्यति। भारतीय उपकप्तान ऋषभ पन्तः अपि स्वभूमिकायाः उत्तरद्वायत्वस्य विषये उक्तवान्। दक्षिण प्रावृट विहारम उत्तर प्रदेशं च प्राप्तवत् इति ऋतु विभागेन सूचितम्। ऋतु विभागस्य वरिष्ठः वैज्ञानिकः आर.के. जेनामणिः आकाशवाण्यै अवदत् यत् आगामिषु 2-3 दिनेषु उत्तरे मध्यभारते च प्रावृतः सक्रियता भविष्यति। इति वार्ताः।